पाणिनी व्याकरण वर्गं प्रति स्वागतम्। आदौ मङ्गलाचरणं क्रियते।
ॐ श्रीगुरुभ्यो नमः। येनाक्षरसमाम्नाय अधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। येन दौदाग्रपुंसा विमलैः शब्दवारिभिः तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनीं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। ॐ श्रीगुरुभ्यो नमः।
साधु भगिनी, धातुविज्ञानं तृतीयभागः इति अनुवर्तते अद्यापि। धातुषु स्वरविज्ञानम् इति पाठः अद्य अनुवर्तते। औपदेशिकधातवः सन्ति। औपदेशिकधातौ अनुनासिक अच् वर्णः अस्ति चेत् तस्य इत् संज्ञा उपदेशजनुनासिक इत् इति सूत्रेण भवति। इत् संज्ञकः भवति इति कृत्वा तस्य लोपः भवति। अनुनासिक अच् वर्णस्य इत् संज्ञा भूत्वा अपगच्छति। औपदेशिकधातौ विद्यमानः सः अनुनासिक अच् वर्णः इतोपि कीदृशः, इतोपि अन्यानि चिह्नानि सन्ति वा इति तत्र द्रष्टव्यम्। स्वरवर्णस्य अधोभागे रेखा अस्ति चेत् सः स्वरः अनुदात्तः। यदि धातौ अनुनासिकस्वरवर्णस्य इति संज्ञा भवति अपि च अनुनासिकस्वरवर्णस्य अधोभागे रेखा अपि अस्ति, इत्युक्ते सः स्वरः अनुदात्तः अपि अस्ति चेत् सः धातुः अनुदात्तेत्। धातुः अनुदात्तेत् चेत् तस्मात् परम् आत्मनेपदसंज्ञकप्रत्ययाः विधीयन्ते। अनुदात्तनित आत्मनेपदं सूत्रेण आत्मनेपदसंज्ञकप्रत्ययाः विधीयन्ते। तदवगन्तुं येधा इति धातोः उदाहरणं परिशीलितवन्तः। अपि च धातौ ण्यकारः इति संज्ञकः अस्ति चेत् यस्मिन् धातौ कवर्गीय अन्तिमव्यञ्जनं ण्यकारः इति संज्ञकः अस्ति चेत् तादृशधातोः परम् आत्मनेपदसंज्ञकप्रत्ययाः विधीयन्ते, तङ् प्रत्ययाः विधीयन्ते अनुदात्तनित आत्मनेपदं सूत्रेण। किमर्थं चेत् सः धातुः नित् अस्ति, ण्यकारः इति संज्ञकः। तादृशधातोः परम् अनुदात्तनित आत्मनेपदं सूत्रेण आत्मनेपदसंज्ञकप्रत्ययाः विधीयन्ते। आहत्य अनुदात्तेभ्यः धातुभ्यः निद्भ्यः धातुभ्यः लस्य इति सूत्रस्य अधिकारे लकारस्य स्थाने तिबादीनां योजनं। धातुः अनुदात्तेत् अथवा नित् चेत् तस्मात् परं तङ् प्रत्ययाः एव विहिताः भवन्ति। धातुः नित् इति अवगन्तुं शीङ् धातोः उदाहरणं वयं परिशीलितवन्तः। शीङ् धातौ ण्यकारः इति संज्ञकः, अतः सः धातुः नित् अस्ति, अतः तस्मात् परम् आत्मनेपदसंज्ञकप्रत्ययाः एव विधीयन्ते। तदर्थमेव तस्य रूपं सेते, इत्युक्ते अनुदात्तनित आत्मनेपदम् इति सूत्रेण अनुदात्तेभ्यः धातुभ्यः निद्भ्यः धातुभ्यः परम् आत्मनेपदसंज्ञकप्रत्ययाः विधीयन्ते। एतत् सूत्रं संज्ञासूत्रमस्ति, अपि च उभयपदित्वम् अपि अस्माभिः पाठितमेव। औपदेशिकधातौ अनुनासिकस्वरवर्णः स्वरितः चेत्, स्वरितः इत्युक्ते स्वरवर्णस्य उपरि रेखाखण्डः दृश्यते चेत् सः स्वरः स्वरितः। यस्मिन् धातौ अनुनासिकस्वरवर्णः न केवलम् अनुनासिकः इत्संज्ञकः, अपि च तस्य उपरि रेखा दृश्यते चेत् सः स्वरः स्वरितः। सः धातुः स्वरितेत् धातुः, इत्युक्ते धातुः स्वरितेत् चेत् अथवा यस्मिन् धातौ चवर्गीय अन्तिमव्यञ्जनम् अनुनासिकव्यञ्जनयकारः इत्संज्ञकः अस्ति चेत् तादृशधातोः परं कीदृशप्रत्ययाः विहिताः भवन्ति इति प्रश्ने सति तत्र क्रियायाः फलं कर्ता प्राप्नोति चेत् तदा आत्मनेपदसंज्ञकप्रत्ययाः विहिताः भवन्ति, नो चेत् इत्युक्ते क्रियायाः फलम् अपरेषां प्रति गच्छति चेत् तदा परस्मैपदसंज्ञकप्रत्ययाः विहिताः भवन्ति। स्वरितनितकर्तृभिप्राये क्रियाफले इति सूत्रेण स्वरितेत् धातुः अस्ति चेत् अथवा नित् धातुः अस्ति चेत् तादृशधातोः परं क्रियायाः फलं कुत्र गच्छति इति प्रथमतया द्रष्टव्यं क्रियायाः फलं कर्तारं प्रति गच्छति चेत् आत्मनेपदिसंज्ञकप्रत्ययाः विहिताः, नो चेत् परस्मैपदिप्रत्ययानां विधानं भवति. एतदवगन्तुं पच् धातोः उदाहरणं वयं परिशीलितवन्तः. पच् धातोः औपदेशिकरूपं डुप् चांश् अस्ति. पच् धातौ चकारोत्तरवर्ती अकारस्य उपरि रेखाखण्डः अस्ति. सः धातुः स्वरितेत् धातुः इत्युक्ते सः अकारः इति संज्ञकः, तत्र अनुनासिकचिह्नम् अस्ति, चन्द्रबिन्दुचिह्नम् अस्ति, उपरि रेखा अपि अस्ति. अतः सः चकारोत्तरवर्ति अकारः अनुनासिकः अपि च स्वरितः. तदर्थमेव पच् धातुः स्वरितेत् धातुः. स्वरितेत् धातुः अस्ति इति कारणतः तादृशधातोः परं क्रियायाः फलं कुत्र गच्छति इति द्रष्टव्यम्. क्रियायाः फलं कर्तारं प्रति गच्छति वा न वा इति द्रष्टव्यं. तद् अनुसृत्य तस्मात् परम् आत्मनेपदिसंज्ञकप्रत्ययाः अथवा परस्मैपदिसंज्ञकप्रत्ययाः विहिताः भवन्ति. स्वरितनितकर्तृभिप्राये क्रियाफले सूत्रेण धातुः उभयपदी भवति इति वार्ता. स्वरितनितकर्तृभिप्राये क्रियाफले इति सूत्रे णित् धातोः प्रसङ्गे अपि उक्तमस्ति खलु. तदवगन्तुमेव डुक्रोञ् इति धातोः उदाहरणं वयं परिशीलितवन्तः. डुक्रोञ् धातौ चवर्गीय अन्तिमे व्यञ्जनम् अनुनासिकव्यञ्जनम् इति संज्ञकः अस्ति, अतः तत्र काठिन्यं नास्ति. इत्युक्ते तत्र चिह्नानि किमपि न आवश्यकानि. चवर्गीय अन्तिमे व्यञ्जनम् इति संज्ञकः अस्ति खलु, तस्य इति संज्ञा हलन्त्यं सूत्रेण भवति. तदर्थं सः धातुः उभयपदी भवति. डुक्रोञ् इति औपदेशिकरूपं, लौकिकरूपं क्रु अस्ति. सः धातुः उभयपदी भवति इत्यतः करोति इति एकं रूपम् अस्ति, कुरुते इति अन्यद् रूपम् अस्ति. तावत्पर्यन्तं वयं पठितवन्तः उभयपदत्वम् इति अस्माभिः पठितम्. अत्र वार्ताका स्वराणां प्रसङ्गे चिन्तनं कथं भवेत्? धातौ ईतसंज्ञकस्वरः अनुदात्तः अस्ति वा स्वरितः अस्ति वा? उपरि रेखा अस्ति चेत् स्वरितः, अधोभागे रेखा अस्ति चेत् अनुदात्तः. औपदेशिकधातौ स्वरस्य उपरि चिह्नानि सन्ति वा इति द्रष्टव्यम्. अपि च सः स्वरवर्णः इतिसंज्ञकः वा? इतिसंज्ञकः कदा भवति? तस्य उपरि चन्द्रबिन्दुचिह्नम् अस्ति चेदेव तस्य इतिसंज्ञा भवति. उपदेशजिह्नासिके इति सूत्रेण भवति खलु. तदर्थं चन्द्रबिन्दुचिह्नम् अस्ति वा, अपि च इतोपि चिह्नानि सन्ति वा इति द्रष्टव्यं स्वराणां प्रसङ्गे. धातौ तादृशी स्थितिः अस्ति चेत् इत्युक्ते धातुः अनुदात्तेत् चेत् आत्मनेपदसंज्ञकाः विधीयन्ते, धातुः स्वरितेत् चेत् धातुः उभयपदी भवति. अपि च व्यञ्जनानां प्रसङ्गे धातौ कवर्गीयव्यञ्जनम् इति संज्ञकः अस्ति चेत् तादृशधातोः परम् आत्मनेपदसंज्ञकप्रत्ययाः विहिताः भवन्ति. अथवा धातौ यकारः चवर्गीयव्यञ्जनम् इति संज्ञकः अस्ति चेत् सः धातुः उभयपदी भवति इति अस्माभिः पठितम्. किन्तु धातुः अनुदात्तेत् नास्ति, स्वरितेत् नास्ति, नित् नास्ति, यित् नास्ति चेत् स्वाभाविकतया परस्मैपदी एव भवति खलु. तदर्थं किमर्थं सूत्रम् आवश्यकम् इति प्रश्नः उदेति. तस्य उत्तरम् अद्य अवगन्तुं प्रयत्नं कुर्मः. ये शेषधातवः सन्ति, इत्युक्ते यः धातुः अनुदात्तेत् नास्ति, नित् नास्ति, स्वरितेत् नास्ति, इत् नास्ति चेत् किं भवति? उदात्तेत् इत्युक्ते धातौ स्थितस्य स्वरवर्णस्य उपरि चिह्नं नास्ति, अधोभागे अपि चिह्नं नास्ति, तदा सः स्वरः उदात्तः. यस्मिन् धातौ उदात्तस्वरस्य इति संज्ञा भवति सः धातुः उदात्तेत्. सर्वे उदात्तेत् धातवः परस्मैपदिनः भवन्ति. किन्तु तस्य कृते किमर्थं पृथक् सूत्रम् आवश्यकम् इति अत्र प्रश्नः अस्ति. तदवगन्तुम् अद्य करपत्रम् एकवारम् अवलोकयाम. सर्वेषां पुरतः स्वराङ्कितधातुपाठः अस्ति इति अहं चिन्तयामि. अपि च अन्या वार्ता का? औपदेशिकधातुषु अनुबन्धवर्णानां निष्कासनानन्तरम् अवशिष्टस्वरः कीदृशः इत्यपि द्रष्टव्यम्. अवशिष्टस्वरः अनुदात्तः अस्ति वा इत्यपि ज्ञातव्यम्. अवशिष्टस्वरः इत्युक्ते अनुबन्धवर्णानां लोपकार्यानन्तरम् इतोपि अच्वर्णाः सन्ति चेत् सः अवशिष्ट अच्वर्णः कीदृशः इति ज्ञातव्यम्. किमर्थं चेत् तेन आधारेण इड् व्यवस्था ज्ञायते. इत्युक्ते सः धातुः अनिट् धातुः वा नो चेत् सेट् धातुः वा इति अवगन्तुं शक्नुमः अवशिष्टस्वरस्य आधारेण इति अत्र वार्ता. अद्य वयं परस्मैपदत्वं सि बिन्दुतः आरभ्य पठेम. परस्मैपदत्वम् इति अवगन्तुम् अत्र सूत्रं दत्तमस्ति. शेषात् कर्तरि परस्मैपदं, त्रीणि पदानि सन्ति खलु, शेषात् कर्तरि परस्मैपदम् इति सूत्रात् आरभ्य पठेम. सत्यभामा भगिनी भवती पठतु.
शेषात् कर्तरि परस्मैपदं, यत्र धातोः आत्मनेपदस्य कारणं नास्ति तत्र कर्त्रर्थे परस्मैपदं भवति. आत्मनेपदनिमित्तहीनात् धातोः कर्तरि परस्मैपदं स्यात्. शेषात् पञ्चम्यन्तं, कर्तरि सप्तम्यन्तं, परस्मैपदं प्रथमान्तं, त्रिपदमिदं सूत्रं. भूवादयो धातवः इत्यस्मात् धातोः इत्यस्य अनुवृत्ति. लस्य इति पदम् आयाति आक्षेपेण, यतोहि तस्य अर्थः निहितः. परस्मैपदम् इत्यस्मिन् यतोहि तस्य अर्थः निहितः परस्मैपदम् इत्यस्मिन् अनुवृत्तिसहितसूत्रं शेषात् धातोः कर्तरि लस्य परस्मैपदम्. अस्मिन् परिच्छेदे यत्र धातोः आत्मनेपदस्य कारणं नास्ति तत्र कर्त्रर्थे परस्मैपदं भवति. उभयपदीस्थले किं वा वयं दृष्टवन्तः, यदि क्रियायाः फलं कर्तारं पदि गच्छति तत्र आत्मनेपद स आत्मनेपदधातुः आत्मनेपदी इति, इदानीं ता किं कर्तरि अर्थे परस्मैपदं भवति यत्र आत्मनेपदस्य कारणमेव नास्ति तादृशस्थले इति उक्तमस्ति. आत्मनेपदिनि निमित्तात् धातोः कर्तरि स्यात् निमित्तहीनात्. सो आत्मनेपदस्य निमित्तमस्ति अनुदात्त निद आत्मनेपदम् इति. यदि ङित् अस्ति अथवा अनुदात्तः अस्ति चेत् आत्मनेपदे सत् पदं भवति, आत्मनेपदिधातुः भवति. तस्य निमित्तं नास्ति चेत् तादृशधातवः परस्मैपदि धातवः भवति. शेष तदनन्तरं शेषात् इति धातोः परम् इति अर्थः अहं चिन्तयामि. शेषात् पञ्चम्यन्तं, कर्तरि सप्तम्यन्तं, तत्र किं वक्तव्यं भगिनि?
भवती साधु उक्तवती. प्रथमं वाक्यं पश्यतु. आत्मनेपदस्य कारणं नास्ति यत्र तत्र कर्त्रर्थे, कर्त्रर्थे इत्युक्ते कर्तरिप्रयोगे तस्मात् धातुः परं परस्मैपदसंज्ञकप्रत्ययाः विहिताः भवन्ति. आहत्य अत्र सारांशः कः? आत्मनेपदनिमित्तहीनात् धातोः परं कर्तरिप्रयोगे परस्मैपदसंज्ञकप्रत्ययाः विहिताः. शेषात् इति एकं पदमस्ति, शेषात् इति पञ्चम्यन्तं. शेषात् इति कथनेन ये धातवः शेषधातवः सन्ति अथवा अवशिष्टधातवः ये धातवः सन्ति इत्युक्ते ये धातवः स्वरितेत् न सन्ति, नित् न सन्ति, अनुदात्तेत् न सन्ति, इत् न सन्ति, ते धातवः एव अवशिष्टधातवः. शेषात् इति कथनेन अवशिष्टधातुभ्यः परम् इति अर्थः. शेषात् इति अवगन्तुं भिन्नरीत्यापि वक्तुं शक्यते. कथमित्युक्ते पूर्वं सूत्रद्वयम् उक्तमस्ति. अनुदात्तनित आत्मनेपदम् इति एकं सूत्रं, स्वरितनित कर्तृभिप्राये क्रियाफले इति अन्यत् सूत्रं. पूर्वम् उक्तेन सूत्रद्वयेन आत्मनेपदसंज्ञकप्रत्ययाः कुत्र विहिताः भवन्ति इति अस्माभिः ज्ञातम्. इत्युक्ते आत्मनेपदत्वम् उक्तम् अनुदात्तनित आत्मनेपदम् इति सूत्रेण, स्वरितनित कर्तृभिप्राये क्रियाफले सूत्रेण उभयपदत्वम् उक्तमस्ति. अनेन सूत्रद्वयेन यदुक्तम् अस्ति तान् धातून् विहाय अन्येषां धातूनां प्रसङ्गे, इत्युक्ते पूर्वेण उक्तेन सूत्रद्वयेन ये धातवः उक्तः तान् धातून् विहाय अन्येषां धातूनां प्रसङ्गे, अत्र शेषात् इत्यस्य अर्थः. अपि च कर्तरी इति पदमस्ति, सप्तम्यन्तं पदमस्ति, विषयसप्तमी एव अथवा वैषयिक सप्तमी. अत्र सप्तमी विभक्तेः अर्थः तु पूर्वकार्यं परनिमित्तम् इति अर्थः अत्र नास्ति, केवलं विषयसप्तमी. शेष धातोः परं कर्तरीप्रयोगे लस्य इत्युक्ते लस्य इति अधिकारसूत्रमस्ति, तस्य सूत्रस्य अधिकारे लकारस्य स्थाने अष्टादश तिबादिषु केवलं परस्मैपदसंज्ञकप्रत्ययाः एव विहिताः भवन्ति कर्तरीप्रयोगे इति अत्र वार्ता अस्ति. अपि च भुवादयो धातवः इति सूत्रात् धातोः इत्यस्य अनुवृत्तिः अस्ति. भगिनी इतोपि वक्तुमिच्छति वा अस्मिन् प्रसङ्गे?
अत्र शेषात् इत्यनेन यत् ङित् नास्ति तदा ङित् नास्ति, अपि च अनुदात्तः न अनुदात्त इति नास्ति, स्वरित इति नास्ति, तेभ्यः एव उक्तः खलु.
आम्,
तान् विहाय अन्यानि धातवः ये सन्ति तेभ्यः यदि कर्तरि अर्थे प्रयोक्तुं शक्यते तत्र शेषकर्तरि परस्मैपदम् इति सूत्रस्य प्रसक्तिः अस्ति.
सूत्रेण परस्मैपदसंज्ञकप्रत्ययाः एव विधीयन्ते. शेषात् इति पदस्य अर्थः तु पूर्वम् उक्तेन सूत्रद्वयेन यदुक्तम् अस्ति तान् धातून् विहाय अन्यधातवः, शेषधातवः, अवशिष्टधातवः, अवशिष्टधातुभ्यः परं कर्तरिप्रयोगे लकारस्य स्थाने परस्मैपदसंज्ञकप्रत्ययाः विहिताः भवन्ति. साधु भगिनि. इदानीं गीताञ्जलि भगिनी भवती पठतु.
अतः अनेन सूत्रेण अवशिष्टाः धातवः सर्वे परस्मैपदिनः. धातुः अनुदात्तेत् ङित् स्वरितेत् ङित् च नास्ति चेत् सः धातुः परस्मैपदी धातुः एव. ङितः अनुदात्तेत्तः धातवः एव आत्मनेपदिनः. ङितः ङितः स्वरितेतः धातवः एव उभयपदिनः. यदि अवशिष्टाः धातवः सर्वे परस्मैपदिनः तर्हि सूत्रस्य का आवश्यकता इति चेत् कर्तरि. कर्त्रर्थे अस्ति चेदेव धातुः परस्मैपदी. कर्मणि भावे परस्मैपदी न भवति इति सूचनार्थं सूत्रं विरचितम् अस्तु. इति परिच्छेदे मुख्यवार्ता इति यदि वयम् अनुदात्तङित आत्मनेपदम् अपि च स्वरितङित कर्तृभिप्राये क्रियाफले सूत्रद्वयं पठामश्चेत् वयं तु जानीमः ये धातवः अनुदात्तेत् नास्ति, ङित् नास्ति, स्वरितेत् नास्ति, ङित् अपि नास्ति, ते सर्वे परस्मैपदम्.
भगिनि एकं वक्तुमिच्छामि. अस्माभिः किं ज्ञातव्यं, पश्यतु अत्र एकं वाक्यमस्ति, ङितः स्वरितेतः धातवः. इत्युक्ते बहुवचने वक्तुमिच्छामश्चेत् ये धातवः ङितः सन्ति, ये धातवः स्वरितेतः सन्ति, ये धातवः अनुदात्तेतः सन्ति, एवं वक्तव्यं खलु?
अस्तु अस्तु.
बहुवचने वाक्यं दत्तमस्ति खलु. स्वरितेत् इति एकवचने भवति, स्वरितेतः धातवः धातोः विशेषणं भवति. इदानीं वदतु.
अस्तु भगिनि, पुनः वदामि. अनुदात्तेतः ङितः, स्वरितेतः ङितः, ये धातवः सन्ति ते परस्मैपदी धातवः नास्ति. इत्युक्ते शेष ये धातवः सन्ति ते सर्वे परस्मैपदी धातवः सन्ति इति अस्माभिः चिन्तयितुं शक्यते. किन्तु तत् सत्यं चेत् शेषात् कर्तरि परस्मैपदम् इति सूत्रं किमर्थम् इति एकः प्रश्न उदेति. उत्तरम् इति वदति इति परिच्छेदे शेषात् कर्तरि परस्मैपदम् इति सूत्रे कर्तरि इति मुख्यपदमस्ति. कर्तरि भवति चेत् ये ये धातवः ये ये प्रयोगः कर्मणि अपि च भावे सन्ति ते तु आत्मनेपदी रूपाणि स्वीकुर्वन्ति. तत् भवति चेत् केवल कर्तरर्थे अस्ति चेत् एव धातवः परस्मैपदी सन्ति इति परिच्छेदं दत्तं भगिनि.
उत्तमम्, अत्र तदेव लिखितम् अस्ति. अनेन सूत्रेण अवशिष्टाः धातवः सर्वे परस्मैपदिनः इति मुख्या वार्ता. अवशिष्टाः धातवः इत्युक्ते ये धातवः अनुदात्तेतः न सन्ति, नितः न सन्ति, स्वरितेतः न सन्ति, इतः न सन्ति चेत् सः धातुः परस्मैपदी धातुः एव, किन्तु कर्तरि प्रयोगे एव. अत्र कर्तरि इति वैषयिकसप्तमी, विषयसप्तमी. स्पष्टीकरणार्थम् एव पृथक्तया अन्यत् सूत्रम् उक्तमस्ति. अत्र उदाहरणार्थं बालकः श्लोकं पठति इति कर्तरिप्रयोगे वाक्यमस्ति. पठति इत्यत्र परस्मैपदसंज्ञकप्रत्ययः अस्ति, किन्तु कर्मणि प्रयोगे तस्य रूपं कथं भवति? वाक्यस्य रूपं बालकेन श्लोकः पठ्यते इति भवति. वृक्षेण पठ्यते, अत्र पत् धातोः प्रसङ्गे भाव्यप्रयोगे एव वाक्यं सम्भवति. किमर्थं चेत् पत् धातुः अकर्मकधातुः. धातुः अकर्मकः चेत् तत्र कर्मपदं नास्ति इति कारणतः भाव्यप्रयोगे एव वाक्यं सम्भवति. अतः वृक्षेण पत्यते इति रूपं भवति. रामः विद्यालयं गच्छति इति कर्तरिप्रयोगे वाक्यं. कर्मणि प्रयोगे वाक्यस्य परिवर्तनं कृत्वा वदामश्चेत् रामेण विद्यालयः गम्यते इति भवति. इत्युक्ते भाव्यप्रयोगे कर्मणि प्रयोगे आत्मनेपदसंज्ञकप्रत्ययाः विहिताः भवन्ति भावकर्मणोः इति सूत्रेण. भावेप्रयोगे कर्मणि प्रयोगे धातोः परम् आत्मनेपदसंज्ञकप्रत्ययाः विहिताः भवन्ति. कर्मणि प्रयोगः इत्युक्ते किं? भावेप्रयोगः इत्युक्ते किं? लकारः यदा कर्तारम् अनुसरति अथवा कर्तृपदम् अनुसरति सः प्रयोगः एव कर्तरिप्रयोगः. लकारः यदा कर्म अनुसरति अथवा कर्मपदम् अनुसरति तत्र कर्मणि प्रयोगः सम्भवति. अपि च लकारः यदा भावं निर्दिशति तदा भावेप्रयोगे वाक्यं सम्भवति. वृक्षेण पत्यते इति भावेप्रयोगे वाक्यमस्ति. रामेण विद्यालयः गम्यते इत्यत्र कर्मणि प्रयोगे वाक्यमस्ति. आहत्यत्र वार्ता का? अवशिष्टाः धातवः सर्वे कर्तरिप्रयोगे एव परस्मैपदिनः भवन्ति.
भगिनी, तत्र सूत्रं किं? भावे कर्मणोः इति एकं सूत्रम् अस्ति भगिनि.
भावकर्मणोः, भावकर्मणोः इति सूत्रेण धातोः परं भावे प्रयोगे कर्मणि प्रयोगे आत्मनेपदसंज्ञकप्रत्ययाः विहिताः भवन्ति. वयं किं दृष्टवन्तः? पूर्वम् अनुदात्तनित आत्मनेपदम् इति सूत्रं धातूनां प्रसङ्गे उक्तमस्ति. इत्युक्ते तेन सूत्रेण धातवः आत्मनेपदिनः भवन्ति. तादृश आत्मनेपदी धातोः परम् आत्मनेपदसंज्ञकप्रत्ययाः एव विहिताः भवन्तु इति कथं ज्ञायते? इत्युक्ते तत्र सूत्रमस्ति तङ्गानाम् आत्मनेपदम्. तङ्गप्रत्ययाः आनप्रत्ययद्वयम् आत्मनेपदसंज्ञां प्राप्नुवन्ति इति वार्ता. तत्र कम्पाटबिलिटि आवश्यकं खलु. तदर्थं धातुः आत्मनेपदी धातुः चेत् प्रत्ययः अपि आत्मनेपदप्रत्ययः एव भवतु. यद्यपि अष्टादशप्रत्ययाः सन्ति तेषु तङ्गप्रत्ययाः एव आत्मनेपदसंज्ञकाः. अग्रे सरेम. अत्र अस्माकम् अवगमनार्थं पठ धातोः उदाहरणं दत्तमस्ति. सुजाता भगिनी, भवती पठतु.
पठान् धातोः तकारोत्तरवर्ती यः अकारः अस्ति सः न अनुदात्तः न वा स्वरितः, चिह्नं नास्ति एव, अतः उदात्तः. उदात्तः अपि अनुनासिकः अपि, अतः अयं धातुः उदात्तेत्. उदात्तेत् अतः परस्मैपदी. तदैव लिखान् धातुः
धावु
गतिशुद्धो शुद्ध्योः इति उकारस्य उदाहरणम्। उकारः उदात्तेतः अनुनासिकः च, अतः धातुः उदात्तेत्। तर्हि परस्मैपदी लटि धावति। पटान् धातु अस्ति, पटोत्तरवर्ती यः अकारः अस्ति सः अनुदात्तः।
कथं पठनीयम्? अत्र पश्यतु, पठ् धातौ ठकारोत्तरवर्ती यः अकारः अस्ति, अस्ति वा? ठकारोत्तरवर्ती अकारः कीदृशः इदानीं वदतु।
ठकारोत्तरवर्ती अकारः सः न अनुदात्तः, न वा स्वरितः। स्वरिता नास्ति, अनुदात्त अपि नास्ति।
कथं ज्ञायते?
अनुदात्तः अधः रेखा नास्ति, उपरि रेखा नास्ति, इत्यनेन न अनुदात्तः न स्वरितः। अतः चिह्नं नास्ति एव, अतः उदात्तः।
उदात्तः अथवा अयं धातुः उदात्तेत्। किमर्थम् उदात्तेत्?
अनुनासिक अकारः इत्संज्ञा भवति इत्यनेन।
अत्र भेदः अस्ति, स्वरवर्णः उदात्तः, धातुः उदात्तेत् खलु?
आं भगिनि।
स्वरवर्णस्य वर्णनं कर्तुमिच्छामश्चेत् स्वरवर्णः उदात्तः, धातुः उदात्तेत्। यस्मिन् धातौ उदात्तस्वरवर्णस्य इति संज्ञा भवति तादृशधातोः नाम उदात्तेत्। अत्र पठ् धातुः उदात्तेत्, धातुः उदात्तेत् इति कारणतः आत्मनेपदनिमित्तहीनात् अयं धातुः परस्मैपदी। अग्रे वदतु।
तदैव लिखान् धातुः धुवोङ्
धावुङ् इति लिखितम् अस्ति। अत्र औपदेशिकधातोः रूपम् एवम् अस्ति, किन्तु लौकिकधातुः किम् अस्ति?
धावस्।
कथं भवति?
अनुनासिक उकारस्य इत्संज्ञा भवति उपदेशे जननासिक इत्यनेन। धाव् धातु अस्ति।
पट् धातोः रूपं साधयतु।
पट् धातु
भुवादिगणे अस्ति।
भुवादिगणे पट् योगः शप् योगः ति भवति। पट् शकारपकारयोः इत्संज्ञा भवति। शकारः लसक्वतदिते इत्यनेन, पकारः अलञ्चम् इत्यनेन इत्संज्ञा भवति। आ एव अवशिष्यते। पट् योगः आयोगः ति पठति भवति।
किमर्थं ति योजितवती?
परस्मैपदी धातो इत्यनेन लस्य स्थाने ति प्रत्ययः आयाति।
उत्तमं। पठते इति रूपम् अनिष्टं रूपम्। अत्र धातुः परस्मैपदी धातुः, अतः परस्मैपदीसंज्ञकप्रत्ययः एव विहितः भवति। इदानीं लिख् धातोः प्रसङ्गे वदतु, अनुबन्धलोपः कथं भवति, लट् रूपं कथं साधनीयं वदतु।
लिखाङ् ककारोत्तरवर्ति अकारस्य इत्संज्ञा भवति उपदेशे जननासिक इत्यनेन। निरनुबन्धधातुः अस्ति लिख्। लिख् योगः
तुदादिगणे अस्ति।
तुदादिगणे अस्ति। तुदादिगणे विकरणप्रत्ययः च अस्ति। शकारस्य इत्संज्ञा भवति। आ एव अवशिष्यते। लिख् योगः आयोगः आयोगः लिखति भवति वा?
लिखति खलु?
लिखति।
अत्र धातुः इदुपधधातुः, किन्तु गुणकार्यं न भवति। किमर्थं गुणकार्यं न भवति? लेखति इति रूपम् असाधु खलु?
पित्वं नास्ति विकरणप्रत्यये, शकारः एव अस्ति इत्यनेन गुणः न भवति।
उत्तमं। तुदादिगणीयधातुः अस्ति इति कारणतः गुणकार्यं न भवति। तुदादिभ्यः शः इति सूत्रेण श विकरणप्रत्ययः आयाति। श इत्यस्मिन् प्रत्यये शित्वम् अस्ति, किन्तु पित्वं नास्ति, अतः गुणकार्यं न भवति। अतः रूपं लिखति आत्मनेपदनिमित्तहीनात् परस्मैपदी भवति, किन्तु केवलं कर्तरिप्रयोगे एव। बालकः वाक्यं लिखति इति साधु। बालकेन वाक्यं लिख्यते कर्मणि रूपं किं भवति
आत्मनेपदे आयाति लिख्यते
लिख्यते भवति पठ् धातोः रूपं कर्मणि प्रयोगे किं भवति
पठ्यते
धाव् धातोः प्रसङ्गे वदतु इदानीं
धाव् धातोः वकारोत्तरवर्ति उकारः इत्संज्ञा भवति उपदेशे जननासिक इत्यनेन निरबन्धधातु अस्ति धाव् धाव् योगः भवादिगणे अस्ति वा भगिनि
भवादिगणे
धाव् योगः शप् योगः ति भवति परस्मैपदी इत्यनेन धाव् शकारपकारयोः इत्संज्ञा भूत्वा आ एव अवशिष्यते धाव् योगः आ योगः ति धावति
उत्तमं कर्मणि रूपं किं भवति
धाव्यते
उत्तमम् एते धातवः परस्मैपदिनः किमर्थम्
शेषात् कर्तरी परस्मैपदी इत्यनेन परस्मैपदी
सूत्रम् उक्तवती किन्तु किमर्थं परस्मैपदिनः
ते अनुदात्तः नास्ति स्वरितः नास्ति
उदात्तेतः खलु
उदात्ते धातु अस्ति इत्यनेन परस्मैधातुः अस्ति
उत्तमम् अत्र एते धातवः उदात्तेतः अतः परस्मैपदिनः केवलं कर्तरिप्रयोगे एव इति वयं ज्ञातवन्तः लौकिकरूपं धाव् अस्ति किन्तु उपदेशावस्थायां तस्य रूपं धावु अनुनासिक उकारः इत् संज्ञकः उपदेशजुनुनासिक इत् इत्यनेन अनुनासिक उकारस्य इत् संज्ञा भूत्वा अपगच्छति साधु भगिनि साधु उक्तवती इदानीं प्रतिमा भगिनी भवती पठतु अग्रे किं लिखितम्
इदानीं क्षीक्षये इति धातुः इकारः अनुदात्तः अस्ति अतः धातु अनुदात्तेत् आत्मनेपदी च किल क्षयते इति रूपम् इति अस्मन् इत्यस्मिन् अस्माकं भ्रान्तिः कारणम् अस्मिन् इकारे अनुनासिकचिह्नं नास्ति अतः इतसंज्ञक न अस्ति तर्हि अनुदात्तेत् इति कथं वदेम धातौ अनुदात्त इकारः इतसंज्ञकः चेत् एव खलु धातु अनुदात्तेत् अनुदात्तः इत् यस्य सः इति वक्तुं शक्नुमः तर्हि कः स्वरः अवशिष्यते कः स्वरः च अपगच्छेत् इति अवधेयम् स्वरेण पदनिर्णयः अस्माभिः कदा क्रियते यदा स्वरः शिष्यते इति न यदा स्वरः इतसंज्ञक नाम अपगच्छति तदा एव क्रियते क्षीधातौ इकार अनुदात्तः तु अस्ति किन्तु इतसंज्ञक नास्ति अतः क्षयति अस्य धातोः इकारः इड् व्यवस्थां सूचयति न तु पदव्यवस्था क्षी धातु इकारान्त अस्ति इकार अनुदात्त अस्ति अतः धातु अनुदात्ते इति भ्रान्ति भवति इति आत्मनेपदी इति भ्रान्ति भवति परन्तु ई स्वरः अनुनासिक नास्ति अनुनासिकचिह्नं नास्ति एतेन कारणेन इत् सम्यक् नास्ति अनुदात्ते कथं वदेम धातौ इकार अनुदात्त इकार इतसंज्ञक चेत् तर्हि एव धातु अनुदात्ते इति वक्तुं शक्नुमः तर्हि कः स्वरः अवशिष्यते कः स्वरः च अपगच्छेत् इति अवधेयम् स्वरेण पदनिर्णयः अस्माभिः कदा क्रियते यदा स्वरः इतसंज्ञकः तदा स्वरः अपगच्छति, तदा एव पदनिर्णयः क्रियते। क्षीदातौ इकारः अनुदात्त अस्ति, किन्तु इत्तसञ्ज्ञक नास्ति अनुनासिकचिह्नस्य अभावेन, अतः क्षयति भवति। इकारः पदव्यवस्था न सूचयति, इकारः इर्व्यवस्था सूचयति।
उत्तमं, बहु सम्यक् उक्तवती भगिनी, तदेव पश्यन्तु। धातुः क्षी अस्ति, क्षी धातुः इगन्तधातुः, क्षये इत्यस्मिन् अर्थे अस्ति। अत्र इकारस्य उपरि चन्द्रबिन्दुचिह्नं नास्ति, चन्द्रबिन्दुचिह्नं नास्ति इति कारणतः अयम् इकारः अनुनासिकः नास्ति, अतः इति संज्ञकः न भवति, तस्य लोपः न भवति। इकारः यथावत् तिष्ठति अस्मिन् धातौ, अनुनासिकचिह्नं नास्ति इत्यतः, इति संज्ञकः नास्ति इत्यतः धातौ अयम् इकारः यथावत् तिष्ठति। अस्मिन् धातौ इकारः अस्ति, सः इकारः अनुदात्तः एव, किमर्थं चेत् अधोभागे रेखा अस्ति इति कारणतः इकारः अनुदात्तः तावदेव। इकारः अनुदात्तः किन्तु धातुः अनुदात्तेत् नास्ति, किमर्थं चेत् अनुदात्त अनुनासिक इकारस्य इति संज्ञा भूत्वा तस्य लोपः भवति चेदेव अयं धातुः अनुदात्तेत् धातुः भवति, किन्तु तादृशी स्थितिः अत्र नास्ति, अत्र इकारस्य लोपः न भवति एव, अतः धातुः अनुदात्तेत् नास्ति, तत्र भ्रमः मास्तु इति अत्र उक्तमस्ति। भ्रमु धातोः कृतिं प्रत्ययान्तरूपमेव भ्रान्तिः, मन् धातुतः मतिः, भ्रमु धातुतः भ्रान्तिः, क्तिन् प्रत्ययान्तरूपम् अस्ति। अत्र क्षी धातुः अनुदात्तेत् धातुः नास्ति, अत्र किं वदामः, आत्मनेपदनिमित्तहीनात् परस्मैपदी भवति इति कृत्वा तस्य रूपं क्षयति। नरसिंहहेग्डे महोदय, अयं धातुः भुवादिगणे अस्ति, इगन्तधातुः अस्ति, तस्य रूपं किं भवति, रूपं कथं साधनीयम्?
क्षीयोगशप् शप् इत्युक्ते अ, क्षीयोग अ इति सार्वधातुकप्रत्ययः अस्ति, अ इति सार्वधातुकप्रत्ययः अस्ति, अतः क्षी इति इगन्तधातुः अस्ति, अतः सार्वधातुकार्धधातुकयो इत्यनेन गुणः भवति, गुणः भूत्वा क्षे इति भवति, क्षेयोग अ, अत्र एच आयाति, ऐ इति आदेशः भवति, क्षै योग अ योग, अनन्तरं तिङ् प्रत्ययति, क्षयति इति रूपम्।
अत्र ति इति किमर्थं योजनीयं, ते इति रूपं किमर्थं न आयाति?
अत्र परस्मैपदे अस्ति, अत्र अनुदात्त इति नास्ति, अनुदात्तेत् नास्ति धातु, अतः आत्मनेपदं नास्ति, शेषात् कर्तरि परस्मैपदम् इत्यनेन परस्मैपदं भवति।
उत्तमं, तदर्थमेव अस्य धातोः लट्लकाररूपं क्षायति। भवन्तः सर्वे स्वराङ्कितधातुपाठं पश्यन्ति चेत् तत्र क्षी इति त्रिषु गणेषु अयं धातुः अस्ति, भुवादिगणे अस्ति चेत् तस्य रूपं क्षायति, महोदय सम्यक् रीत्या उक्तवान्, क्षी धातोः रूपं क्षयति, किन्तु स्वादिगणे अपि अस्ति, स्वादिगणीयक्षी धातोः रूपं क्षिणोति, तत्रापि परस्मैपदी एव। अपि च क्षी धातुः तुदादिगणे अस्ति, तुदादिगणीयक्षीधातोः रूपं क्षीयति, अत्र क्षयति अस्ति, किन्तु तुदादिगणीयक्षीधातोः रूपं क्षीयति अस्ति। कथं तत्र रूपं साधयामः इति प्रश्ने सति तत्र एकं विशिष्टं सूत्रम् आवश्यकम्। अचिष्णुधातुभ्रुवां युवोरियङ् वङ्गौ इति एकं विशिष्टं सूत्रम् अस्ति। धातुः इकारान्तधातुः अथवा ऊकारान्तधातुः इत्युक्ते अङ्गम्, इगन्तमङ्गम् अथवा ऊकारान्तम् अङ्गम्, अयं धातुः तुदादिगणे अस्ति चेत् विशिष्टधातुः, भुवादिगणे सामान्यधातुः एव, तुदादिगणे अयं धातुः विशिष्टधातुः अस्ति इति कारणतः इयङ् आदेशः भवति। अचिष्णुधातुभ्रुवाम् इयङो वङ्गौ इति सूत्रेण इयङ् आदेशः भवति, तत्र रूपं क्षीयति, स्वादिगणीयधातोः रूपं क्षिणोति। स्वादिभ्यः श्नुः सूत्रमस्ति खलु, श्नु इति विकरणप्रत्ययः अस्ति, क्ष्णोविकरणप्रत्यये उ अस्ति, तत्र गुणकार्यं भूत्वा क्षिणोति इति रूपं भवति. आहत्य त्रिषु गणेषु अयं धातुः परस्मैपदी एव. किन्तु अत्र वार्ता का, क्षि इति धातौ अधोभागे रेखा दृश्यते, तस्य अर्थः कः महोदय वदतु.
क्षि इति धातु तस्य अधोभागे रेखा अस्ति इति कृत्वा तत् अनुदात्त अस्ति. अवशिष्टस्वर एकाच् अनुदात्तात् इत्यनेन तत्र अनीट् भवति, इडागमस्य प्रसक्तिः नास्ति.
उत्तमं. तस्य प्राधान्यं किम् इत्युक्ते, अत्र अधोभागे या रेखा दृश्यते तया रेखया इड् व्यवस्था ज्ञायते. तदर्थमेव अस्य धातोः लृट् लकाररूपं क्षेष्यति क्षेष्यति अनिट् धातुः भवति, अनिटत्वं सूचयति. महोदयेन यत् सूत्रम् उक्तमस्ति, एकाच उपदेशे अनुदात्तात् इति सूत्रम् अधोभागे दत्तमस्ति. एकाच उपदेशे अनुदात्तात् इति सूत्रेण धातोः अनिटत्वं सूच्यते इति वार्ता, न तु पदव्यवस्था. अत्र तु अनुदात्तस्वरः अस्ति एव, किन्तु धातुः अनुदात्तेत् नास्ति इति स्मर्तव्यः. अग्रे सरेम. महोदय भवानेव पठतु अग्रे.
स्मृ धातो ऋकार अनुदात्त, किन्तु अनुनासिक न, अतः अनुदात्तेत् न. अयं ऋकारः इड्व्यवस्था सूचयति, न तु पदव्यवस्थां. स्मृ धातुः अनुदात्तेत् अपि नास्ति, णित् अपि नास्ति, स्वरितेत् अपि नास्ति, णित् अपि नास्ति. अतः अयं धातु परस्मैपदी. स्मरति इति लटीरूपम्. अत्र स्मृधातोः विषये दत्तमस्ति. अत्र स्मृधातोः ऋकार अन्ते ऋकार अस्ति, तत् अनुदात्त अपि अस्ति. किन्तु अनुदात्त अस्ति परन्तु अनुनासिक नास्ति, अतः अनुदात्तेत् नास्ति. अनुदात्तेत् कथं वदामः? अनुदात्त स्वरः इत्संज्ञकः अस्ति चेत् अनुदात्तेत् वदामः. अत्र इत्संज्ञकः नास्ति, अतः अनुदात्तेत् नास्ति. अयं ऋकारः इड्व्यवस्था सूचयति, पदव्यवस्था न सूचयति परन्तु इड्व्यवस्था सूचयति, न तु पदव्यवस्था. स्पृहदातु अनुदात्तेत् अपि नास्ति, अनुदात्तेत् नास्ति, नित् अपि नास्ति, स्वरितेत् अपि नास्ति, इट् अपि नास्ति, कोऽपि निमित्तं नास्ति. आत्मनेपदी कृते कोऽपि निमित्तं नास्ति, उभयपदी कृते कोऽपि निमित्तं नास्ति. अतः शेषात् कर्तरि परस्मैपदम् इति परस्मैपदी भवति. स्मरति इति भवति कथं भवति इति, स्मृ धातु योग शप् शप् इत्युक्ते अ सारधातु कार्बर्तकये गुणः भवति, ऋकारस्य अर् भवति. स्मर् योग अयोग ति स्मरति लट्रूपम्.
उत्तमं, साधु महोदय. स्मृ धातुः इगन्तधातुः इत्युक्ते धातोः अन्ते ऋकारः अस्ति. ऋकारः इकप्रत्याहारस्थवर्णः, अतः सार्वधातुकार्धधातुकयोः इति सूत्रेण शपं निमित्तीकृत्य गुणकार्यं भवति. स्मृ स्मर् भवति. यद्यपि ऋकारस्य गुणसंज्ञकवर्णः अकारः एव, किन्तु तत्र उरण्परः इति सूत्रेण ऋकारस्य स्थाने अर् आयाति, स्मर् इति भवति. स्मर् योगः शप् इत्यस्मात् अकारः आगतः. आत्मनेपदनिमित्तहीनात् महोदयेन उक्तं शेषात् कर्तरि परस्मैपदं. धातुः उदात्तेत् नास्ति. पश्यन्तु, केवलं स्वरः उदात्तः तावदेव, अस्मिन् धातौ इति संज्ञकवर्णः एव नास्ति. इत्युक्ते ऋकारः यथावत् धातौ लौकिकधातौ तिष्ठति, ऋकारः न अपगच्छति. किमर्थं चेत् तत्र चन्द्रबिन्दुचिह्नं नास्ति, ऋकारः तिष्ठति. तदर्थम् उदात्तेत् इति अपि वक्तुं न शक्नुमः. धातुः अनुदात्तेत् नास्ति, नित् नास्ति, स्वरितेत् नास्ति, इत् नास्ति, उदात्तेत् अपि नास्ति, केवलं स्वरः उदात्तः तावदेव. अत्र धातोः अधोभागे रेखा अस्ति, अयं धातुः अनिट्. एकाच उपदेशे अनुदात्तात् सूत्रेण धातुः अनिट् भवति. धातौ इडागमस्य कृते आनुकूल्यं वर्तते चेदेव आर्धधातुकप्रक्रियायाम् इडागमः भवितुं शक्नोति. आर्धधातुकलकारेषु अथवा आर्धधातुककृदन्तरूपसाधनवेलायाम् इडागमचिन्तनम् अवश्यं करणीयम्. किन्तु अत्र धातुः अनिट् अस्ति, धातोः परं प्रत्यये इडागमयोग्यत्वम् अस्ति चेदपि धातौ आनुकूल्यं नास्ति इति कारणतः इडागमः न भवति इति वार्ता. किन्तु पुनः तत्र अपवादः. स्मृधातोः लृट्लकाररूपं स्मरिष्यति, क्रूधातोः रूपं करिष्यति, हृधातोः रूपं हरिष्यति, किमर्थं तथा इति प्रश्नः अस्ति. धातौ आनुकूल्यं भवेत्, प्रत्यये अपि आनुकूल्यमस्ति चेदेव तत्र इडागमः भवति इति तु सामान्यनियमः, किन्तु कुत्रचित् अपवादाः सन्ति. स्मृधातोः प्रसङ्गे इडागमः विशिष्टसूत्रेण भवति. रुद्धनोः स्ये इति सूत्रमस्ति. रुद्धनोः स्ये इति सूत्रेण ऋकारान्तधातुषु स्या प्रत्यये परे इडागमः भवति. इत्युक्ते ऋकारान्तधातुषु अपि च हन् धातुः सेटः स्या प्रत्यये परे एकेन विशिष्टसूत्रेण अपवादत्वेन स्मरिष्यति इति रूपं सम्भवति. अत्र धातुः तु अनिट् धातुः एव, किन्तु स्या प्रत्यये परे रुद्धनोः स्य इति सूत्रेण इडागमः भवति इति कृत्वा तत्र रूपं स्मरिष्यति. क्रूधातुः अपि अनिट् एव, किन्तु क्रूधातोः लृट् लकाररूपं भविष्यत्कालरूपं करिष्यति. हृ हरिष्यति, हन् हनिष्यति, एते धातवः अनिटः सन्ति चेदपि विशिष्टसूत्रेण इडागमः भवति. इड् व्यवस्था ज्ञायते इति तु सत्यं, सामान्यनियमः तु सः एव, किन्तु अपवादत्वेन एते धातवः सेटः भवन्ति. अधोभागे या रेखा अस्ति तया रेखया इड् व्यवस्था ज्ञायते. अत्र धातुः उदात्तेत् अपि नास्ति, केवलम् अवशिष्टस्वरः उदात्तः. अस्मिन् धातौ इत्संज्ञकवर्णाः न सन्ति, ऋकारः यथावत् तिष्ठति. अस्तु, वयं किञ्चित् ज्ञातवन्तः, इदानीम् अभ्यासं कुर्मः. अत्र केचन धातवः दत्ताः, तेषां धातूनां प्रसङ्गे किञ्चित् वक्तव्यम्. रामचन्द्रन् महोदय, भवान् पठितुमिच्छति वा?
प्रयत्नं करोमि भगिनि. अभ्यासः. इमे धातवः सर्वे द्वादिगणीयाः. सर्वप्रथमं धातुः आत्मनेपदी, उभयपदी, परस्मैपदी वा इति सूच्यताम्. तदा लौकिकधातुः कः इति वदतु. तदा विकरणसहितम् अङ्गं किं. तदा लट् लकारस्य रूपं. भुवादिगणे गणीयाः धातवः दत्ताः, तत्र आत्मनेपदं वा उभयपदं वा परस्मैपदं वा इति निर्णयः करणीयः. तत्र लौकिक धातुः किं, धातुः कः इति वक्तव्यम्. अनन्तरं विकरणसहितम्, अनन्तरम् अङ्गं किम् इत्यपि अत्र रूपनिर्णयसन्दर्भे वक्तव्यं. लट्लकारस्य रूपं वक्तव्यम् इति. तत्र उदाहरणं, वशु इति धातुः उदात्तेत् अतः परस्मैपदी. लौकिकधातुः वञ्च्, विकरणसहितम् अङ्गं वञ्च्, लटि वञ्चति, वञ्च् वचुं वञ्चुं, तत् तत्र अनुदात्तेत् अनुदात्तः अस्ति अतः उपदेशे अजनुनासिके यित् इति कारणेन तत्र उकारस्य लोपः भवति. इत्संज्ञा तस्य लोपः इति कारणेन लोपः भवति. वञ्च् इति लौकिकरूपं भवति. अनन्तरं भुवादिगणः इति कारणेन शप् प्रत्ययः आयाति. तत्र वञ्च, तत्र शकारस्य पकारस्य लोपः भवति. दशक्वतद्धिते इति कारणेन शकारस्य लोपः. अनन्तरं हलन्त्यम् इति सूत्रेण पकारस्य लोपः भवति. अवशिष्टवर्णः अकारः, अतः यदि योज्यते तदा वञ्च इति भवति. अनन्तरं परस्मैपदं करणम्, अत्र स्वरः न दत्तः इति कारणेन अतः परस्मैपदं भवति. अतः ति इति तिङ् प्रत्ययः भवति. अतः वञ्चति इति रूपं सिध्यति.
साधु महोदय, पश्यन्तु, एते धातवः सर्वे भुवादिगणीयाः, अतः शप् विकरणप्रत्ययः धातु तिङ् प्रत्ययोः मध्ये आयाति. अपि च अङ्गम् इति एकं पदं दत्तमस्ति, अङ्गसंज्ञासूत्रमस्ति. यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम् इति अङ्गसंज्ञासूत्रमस्ति. इत्युक्ते प्रत्ययात् पूर्वं यावान् भागः अस्ति तत्सर्वम् अङ्गम् इति वदामः. उदाहरणार्थं वञ्चु इति धातुः अस्ति. अत्र अनुनासिक उकारः इत् संज्ञकः अस्मिन् धातौ. अत्र अनुनासिक उकारस्य अधोभागे चिह्नं नास्ति, उपरि अपि चिह्नं नास्ति. अतः अयम् अनुनासिक उकारः उदात्तः, किमपि चिह्नं नास्ति, अतः उदात्तः. अपि च उदात्तस्वरवर्णस्य इति संज्ञा भवति अत्र. अतः धातुः उदात्तेत्, वञ्चुधातुः उदात्तेत् धातुः. अत्र उभयपदी भवितुं कारणं नास्ति, आत्मनेपदी भवितुं कारणं नास्ति इत्यतः धातुः परस्मैपदी भवति. धातुः उदात्तेत् अतः परस्मैपदी. अनुबन्धवर्णानां लोपकार्यानन्तरं लौकिकधातुः वञ्च् धातुः एव अङ्गं भवति. कस्य कृते? शप् प्रत्ययस्य कृते. शपं निमित्तीकृत्य अङ्गकार्यं भवति वा इति अत्र द्रष्टव्यम्. शपं निमित्तीकृत्य अङ्गकार्यम् अत्र नास्ति. शप् विकरणप्रत्ययस्य कृते अङ्गं धातुः. तिङ्प्रत्ययस्य कृते अङ्गं किं भवति? वञ्च इति अङ्गं भवति. विकरणसहितं रूपं धातुविकरणप्रत्ययोः मेलनं भूत्वा वञ्च इति रूपं सिद्ध्यति, तदेव अङ्गं भवति तिङ्प्रत्ययस्य कृते. अत्र परस्मैपदरूपम् अस्ति. परस्मैपदसंज्ञकप्रत्ययः अन्ते आयाति. किमर्थं चेत् धातुः उदात्तेत्, अतः परस्मैपदी धातुः, अतः वञ्चति इति रूपम्. महोदय, प्रथमधातोः प्रसङ्गे वदतु, कथं साधनीयं रूपं?
फलान् अत्र उपदेशे अजनुनासिके इति कारणेन इत्संज्ञा सिद्ध्यति. अनन्तरं अधः रेखा अस्ति, अनुदात्तः इति ज्ञायते. अनुदात्तेत् धातुः अनुदात्तेत् अस्ति, अतः अनुदात्तेत् इति आत्मनेपदम्.
क्रमेण सूत्राणां साहाय्येन लट्लकाररूपं साधनीयम्.
अत्र उपदेशे अजनुनासिके इत्यादि कारणेन तत्र अकारस्य अन्तिम अकारस्य लोपः भवति, अतः लौकिकरूपं तु मल् इति भवति. भुवादिगणे अस्ति इति कारणेन तस्य विकरणप्रत्ययः तु शप्. अनन्तरं तत्र अनुबन्धलोपात् अकारः अवशिष्टः भवति. तत्र मल् इति अङ्गं भवति. शप् प्रत्ययं यदा योजयामः, पूर्वं यदस्ति तत् अङ्गं भवति मल् इति. अनन्तरम् अकारः यदि योज्यते मल इति भवति. अनन्तरं तिङ् योजनीयं. तत्र अनुदात्त यत् अस्ति धातुः, तेन कारणेन आत्मनेपदपदित्वं सिद्ध्यति. तेन कारणेन ते इति तिङ्प्रत्ययः योजनीयः, अतः मल ते तद् इति भवति, तदा मलते.
उत्तमं, साधु महोदय, तदेव मलते इति लट्लकाररूपम् अस्ति. पश्यन्तु, मकारोत्तरवर्ति अकारः अस्ति, लकारोत्तरवर्ति अकारः अस्ति. मकारोत्तरवर्ति अकारः तत्र किमपि नास्ति, किन्तु लकारोत्तरवर्तीयः अकारः अस्ति. सः अकारः न केवलम् अनुनासिकः, अनुनासिकः अस्ति इति कारणतः इत्संज्ञकः, अपि च अनुदात्तः. सः अनुदात्तस्वरः. अनुदात्तस्वरस्य इत्संज्ञा भवति इति कृत्वा धातुः अनुदात्तेत्. अतः अनुदात्तनित आत्मनेपदम् इति सूत्रेण आत्मनेपदसंज्ञकप्रत्ययान् गृह्णाति. तदर्थमेव तस्य रूपं मलते अस्ति. रोहिणी भगिनी, भवती करोतु अग्रिमम्.
अत्र बुद्धि धातु इकार अनुदातः अस्ति, क्षम्यताम्, अनुनासिक अस्ति, उपदेशे अच्च अनुनासिक इति सूत्रेण.
भगिनी, अत्र भिन्नचिन्तनम् आवश्यकम्. वीणा भगिनी, वक्तुमिच्छति वा?
अत्र इर् अस्ति भगिनी, बुधिर् इति अस्ति, स्वरितचिह्नः अपि अस्ति, बुधिरपि अस्ति. इरन् इति संज्ञा वाच्यम् एकं वार्तिकम् अस्ति, तस्य अनुसारम् इर् इति वर्णस्य एव लोपः भवति. बुद् इति अवशिष्यते. बुद् पुगन्तलघुपदस्य उकार इक् अङ्गः अस्ति. पुगन्त पदस्य अन्तिमपदस्य पूर्वम् उकार इक् वर्णः अस्ति, अतः तस्य गुणः भवति बुध बोध इति भवति. किन्तु एतत् इदित् नास्ति, इदानीम् इदित् नास्ति, स्वरितः अस्ति, अतः तत्र स्वरितनित् धातुः कर्तरि अभिप्राये उभयपदी भवति इति अहं चिन्तयामि, अतः रूपद्वयं भवति, बोधते अथवा बोधति.
उत्तमं भगिनि, साधु साधु. अत्र अन्ते रेफः अस्ति, रेफः हलन्त्यम् इति सूत्रेण न अपगच्छति, अनुनासिकैकारः अपि पृथक्तया न अपगच्छति, उपदेशजिन्नासिके इति सूत्रस्य आवश्यकता अत्र नास्ति. अयं धातुः इदित् नास्ति, इदित् अस्ति चेत् इदितोनुं धातोः इति सूत्रेण मध्ये नुमागमः भूत्वा अनिष्टं रूपं सिद्ध्यति. अयं धातुः इदित् नास्ति, किन्तु कीदृशः इरित्, अस्मिन् धातौ इर् इति वर्णसमुदायस्य इत् संज्ञा एकस्मिन् समये युगपत् द्वयोः वर्णयोः इत् संज्ञा भवति. धातुः इरित् धातुः, बहवः इरितः धातवः सप्तमे गणे सन्ति, इत्युक्ते रुधादिगणे सन्ति, भुवादिगणे अपि केचन इरित् धातवः सन्ति, किन्तु बहवः धातवः रुधादिगणे सन्ति. अयं धातुः इरित् धातुः, अतः द्वयोः वर्णयोः इत् संज्ञा पृथक्तया न करणीया. नेटि इति एकं सूत्रमस्ति, तस्मिन् सूत्रे अन्तर्गतं वार्तिकम् अस्ति, इरः इत् संज्ञा वाच्या इति वार्तिकेन द्वयोः वर्णयोः इत् संज्ञा भूत्वा लौकिकधातुः बुद्ध इति भवति. वयं पठितवन्तः पूर्वं छिदिर् भिदिर् ईशुचिर् दृशिर्, सामान्यधातुः एव दृश् धातुः, दृश् धातुतः पश्यति इति रूपं सिद्ध्यति, सः धातुः अपि इरित् धातुः, बुधिर् अपि इरित् धातुः, अपि च धातोः उपरि रेखा अस्ति, अतः स्वरितेत् धातुः. अत्र स्वरितस्वरः इति संज्ञकः, अतः स्वरितेत् धातुः अस्ति. धातुः स्वरितेत् चेत् स्वरितनितकर्तृभिप्राये क्रियाफले इति सूत्रेण उभयपदी भवति. भगिनी भवती एव वदतु, कदा आत्मनेपदी भवति, कदा परस्मैपदी भवति? उभयपदी एव, किन्तु
यः धातुः अनुदात्तेत् नित् अस्ति चेत् आत्मनेपदी भवति.
न, अहं किं पृष्टवती, उभयपदी धातुः अस्ति चेत् कदा आत्मनेपदी प्रत्ययाः विहिताः भवन्ति, कदा परस्मैपदी प्रत्ययाः विधीयन्ते, तत्रापि चिन्तनमस्ति खलु, वदतु.
यदा क्रियाफलं कर्तृप्रति अस्ति चेत् आत्मनेपदी भवति, नो चेत् परस्मैपदी भवति.
यथा वयं पच् धातोः प्रसङ्गे दृष्टवन्तः,
माता पुत्रं कृते पचति अस्ति चेत् परस्मैपदी भवति, आत्मार्थं पचति चेत् आत्मनेपदी भवति.
एवमेव अत्रापि चिन्तनं करणीयं खलु.
आम् आम्.
अपि च धातुः उदुपध धातुः, अतः पुगन्तलघुपधस्य च इत्यनेन गुणः भूत्वा बुद्ध बोध भवति, भुवादिगणीयः अतः शपायति, तेन बोधति बोधते इति रूपद्वयं. साधु. रोहिणी भगिनी अग्रिमधातोः प्रसङ्गे वदतु.
अक्षो इति धातु अनुनासिकस्वरः उकारः, इत्संज्ञा भवति, तस्य लोपः अपि भवति. अक्ष इति लौकिकरूपं, भुवादिगणे शपादि विकरणप्रत्ययः, शक्तशक्तिदे इति सूत्रेण शकारः, इत् हलन्दिसूत्रेण पकारः अपि इत् आ एव अवशिष्यते. अक्षयोग आ तस्मात् परं तिप् आयाति, पकारः इत् भवति, ति अवशिष्यते. अत्र स्वरः अनुदातः नास्ति, स्वरितः अपि नास्ति, तस्मात् उदात्तः, तदर्थम् उभयपदि धातुः भवति. अक्षयोग शयोग ति आयोग ति अक्षति अथवा अक्षते, आत्मनेपदानां टेरे.
एकवारं पश्यतु, अक्षू इति लिखितम् अस्ति, अत्र दीर्घ ऊकारस्य उपरि चन्द्रबिन्दुचिह्नम् अस्ति, चन्द्रबिन्दुचिह्नम् अनुनासिकचिह्नम् अस्ति चेत् उपदेशजनुनासिक इति इत्यनेन अपगच्छति, किन्तु अत्र किमपि अन्यत् चिह्नं नास्ति, स्वरितचिह्नं नास्ति, अधोभागे रेखा नास्ति, अतः अनुदात्तः नास्ति. अत्र उदात्तस्वरस्य इत् संज्ञा भवति, उदात्तस्वरः अस्ति. उदात्तस्वरः अस्ति चेत् उभयपदी न भवति, उदात्तेत् चेत् धातुः परस्मैपदी भवति खलु. अत्र भ्रमः मास्तु. गीताञ्जलि भगिनि भवती वर्णयतु कथमस्ति धातुः अत्र.
आं भगिनि, अत्र यदा धातुः धातोः किमपि चिह्नं नास्ति इत्युक्ते उदात्त अस्ति इत्युक्ते अधोभागे अपि चिह्नं नास्ति उपरि अपि किमपि रेखा नास्ति चेत् उदात्त स्वरः अस्ति किन्तु यदि तत् स्वरः अनुनासिक अस्ति तदा एव उदात्तेत् अस्ति समानेव किमपि धातोः कस्यापि धातोः अधोभागे रेखा अस्ति चेत् अनुदात्त अस्ति तस्य स्वरस्य अनुनासिकचिह्नम् अपि अस्ति चेत् तत् अनुदात्तेत् इति वदामः इत्युक्ते इत् भूत्वा एव यदि इत् भवति तदेव अनुदात्तेत् उदात्तेत् इति भेदः करणीयं भगिनि भेदः अस्ति चेत् यदि किमपि इत् नास्ति तत्र यथा अक्षु इति अस्य धातोः ऊ एव अपगच्छति तत्र किमपि चिह्नं नास्ति चेत् परस्मैपदम् एव तिष्ठति इति वार्ता
उत्तमम् अत्र अनुनासिक ऊकारः इत् संज्ञकः एव धातुः अनुदात्तेत् चेत् अनुदात्तनितात्मनेपदं सूत्रेण आत्मनेपद संज्ञकप्रत्ययाः आयान्ति धातुः स्वरितेत् चेत् स्वरितनितकर्तृभिप्राये क्रियाफले सूत्रेण धातुः उभयपदी भवति एतत् सूत्रद्वयम् अत्र अनावश्यकं किमर्थं चेत् अत्र किमपि चिह्नं नास्ति आत्मनेपदनिमित्तहीनात् परस्मैपदी एव अयं धातुः किन्तु अस्मिन् धातौ ऊकारः इति संज्ञकः तस्य लोपः भवति स्वरः उदात्तः धातुः उदात्तेत् इति कारणतः अत्र परस्मैपदसंज्ञकप्रत्ययाः आयान्ति शेषात् कर्तरि परस्मैपदं सूत्रेण परस्मैपदसंज्ञकप्रत्ययाः एव आयान्ति तदर्थमेव अस्य धातोः लट्लकाररूपम् अक्षाति इति भाति अक्षा इति अङ्गं भवति तिङ् प्रत्ययस्य कृते शप्रत्ययस्य कृते अक्ष इति धातुः एव अङ्गं भवति तदर्थमेव अक्षति इति परस्मैपदिरूपं सिद्ध्यति इदानीम् अत्र प्रतिमाभगिनी भवती करोतु अग्रिमधातोः चिन्तनं
तुब्रांश्रु धातु ऋकारान्त अस्ति अधभागे रेखा अस्ति अतः अनुदात्त स्वर अस्ति अनुनासिक एवमस्ति तेन कारणेन इत् अनुदात्तेत् धातु भवति अनुदात्तेत् धातु अस्ति तेन कारणेन आत्मनेपदी धातु भवति
अनुबन्धवर्णानां लोपकार्यमपि करोतु
ऐ डोण्ट् नो द रूल् बट् तु संज्ञा इत् संज्ञा भवति अहं सूत्रं न स्मरामि
नरसिंह हेग्डे महोदय सूत्राणाम् आधारेण वदतु अत्र रूपं साधयतु
टूब्राशु अत्र टू इति तु इत्संज्ञा भवति आदिर्निटुडव इत्यनेन भवान् अन्तिम अन्ते किम् अस्ति महोदय अन्ते अत्र टु अन्ते अनुनासिक ऋकार अस्ति अनुदात्त अपि अस्ति तस्य उपदेशे अनुनासिक इत्यनेन इत्संज्ञा भवति आदिम टु इति आदिर्निटुडु इत्यनेन आदिर्निटुडु इत्यनेन इत्संज्ञा भवति तस्य लोप इत्यनेन द्वयो लोपः भवति ब्राश् इति अवशिष्यते अत्र अन्तिम ऋकार अनुदात्त अस्ति इत्संज्ञका अपि अस्ति अतः अनुदात्तेत् अस्ति अनुदात्तेत् उपदेशे युनात्तेत् आत्मनेपदम् इत्यनेन आत्मनेपदं भवति क्षम्यताम् अनुदात्तनित आत्मनेपदम् अनुदात्तनित आत्मनेपदम् इत्यनेन आत्मनेपदं भवति ब्राशिति. अनन्तरं रूपं साधनीय द्वादिगणीयः ब्राश्योग शप् शप् मध्ये पकारस्य शकारस्य इस्संज्ञा भूत्वा लोपः भवति अवशिष्यते ब्राश् ब्राश्योग. अनन्तरम् आत्मनेपदी अतः आत्मने प्रत्यय आयाति. अत्र गुणस्य कोऽपि प्रसक्तिः नास्ति. अत्र उपधायाम् आकारः अस्ति. अन्ते अपि इगन्तं नास्ति. अतः गुणस्य प्रसक्तिः नास्ति. ब्राश्योग अयोग आत्मनेपदी इति कारणतः ते आयाति. ब्राशते इति रूपं
उत्तमं. साधु महोदय. अत्र पश्यन्तु शकारोत्तरवर्तिरुकारः कीदृशः. शकारोत्तरवर्तिरुकारः अनुनासिकः, अतः इत्संज्ञकः. उपदेशजन्नासिक इत् इत्यनेन तस्य इत्संज्ञा भूत्वा अपगच्छति. अतः अत्र अनुदात्तस्वरः इत्संज्ञकः. अतः अयं धातुः अनुदात्तेत् धातुः. अपि च टु इति वर्णसमुदायस्य इत्संज्ञा आदिर्निटुडवः इत्यनेन भवति. अनुबन्धवर्णानां लोपकार्यानन्तरं लौकिकधातुः भ्राश् भ्राश्योगः शप् योगः. तत्र तिङ्प्रत्ययः आनेतव्यः. कीदृशतिङ्प्रत्ययः आनेतव्यः? धातुः अनुदात्तेत् चेत् अनुदात्तनित आत्मनेपदं सूत्रेण आत्मनेपदसंज्ञकप्रत्ययः एव आयाति. अतः भ्राश्यात्ते इति रूपं. साधु महोदय. तदेव वीणा भगिनी भवती करोतु.
अत्र ह्रू ह्रू इति अस्ति धातुः. अत्र लशकुतदिते इति सूत्रेण नास्ति नास्ति. ण्यकार अन्तिम ण्यकारस्य इत्संज्ञा भवति. तस्य लोपः भवति. ह्रू इति अवशिष्यते.
सूत्राणाम् आधारेण वदतु.
हलन्त्यम् इति सूत्रेण इत्संज्ञा भवति. तस्य लोपः भवति. ण्यकारस्य ह्रू इति अवशिष्यते धातुः. अत्र तत् धातुः अनुदात्तः अस्ति. किमर्थम् इत्युक्ते अधो रेखा अस्ति. ह्रु इति धातुः अस्ति. तत् इत्संज्ञा नास्ति. इत्संज्ञा नित् अनुदात्तः अस्ति. अनुदात्तेत् नास्ति. भगिनि
यथा भगिन्या उक्तं तादृशी स्पष्टता भवेत् मनसि. ह्रु इत्यत्र हकारोत्तरवर्ती ऋकारः अनुदात्तः एव, किन्तु धातुः अनुदात्तेत् नास्ति. तादृशी स्पष्टता मनसि भवेत्. अत्र अनुदात्तस्वरः तु अस्ति, किन्तु धातुः अनुदात्तेत् नास्ति. इत्युक्ते अनुदात्तस्वरस्य इति संज्ञा न भवति. सः ऋकारः यथावत् तिष्ठति. अत्र अनुबन्धवर्णानां लोपकार्य अनन्तरं किं भवति?
अत्र स्वरितः नित् धातुः अस्ति. नित् अस्ति, तत्र इत्संज्ञा भवति. अतः स्वरितः नित् इति कारणेन स्वरितः नित् कर्त्रवि अभिप्राय इति सूत्रेण उभयपदी धातुः भवति. एतत् हरति तथा हरते इति रूपद्वयं भवति.
अत्र चवर्गी अन्तिमव्यञ्जनम् इत्संज्ञकः अस्ति. स्वरितनीतकर्तृभिप्राये क्रियाफले सूत्रेण धातुः उभयपदी भवति. अत्र रूपसाधनसमये किं किं वैशिष्ट्यमस्ति वदतु. कथं साधनीयं हरति हरते?
हरति हर् इति भवति. हृ अस्ति, ऋकार इक्वर्णः अस्ति. अतः हृ योगे अ हर् इति भवति. परस्मैपदी हरति तथा आत्मनेपदी हरते इति खलु?
उत्तमं. तदेव. अत्र ह्रु इति ऋकारान्तधातुः, इत्युक्ते इगन्तधातुः. अतः सार्वधातुकार्धधातुकयोः इति सूत्रेण गुणकार्यं भूत्वा ह्रु हर् भवति. अहं पूर्वम् उक्तवती, केवलं स्मारयामि. ऋकारस्य स्थाने गुणसंज्ञकवर्णः अकारः एव आदौ आयाति. पश्चात् उरण्परः इति सूत्रेण सः अण्वर्णः रपरः भवति नित्यम् इति वार्ता. यः अण्वर्णः ऋकारस्य स्थाने आदिष्टः भवति सः अण्वर्णः सदा रपरः भवति इति उरण्परः इति सूत्रेण उच्यते. तदर्थमेव सार्वधातुकार्धधातुकयोः इत्यनेन गुणकार्यं भूत्वा ह्रु हर् भवति. हर् योगः आयोगः ति हरति. अत्र आ इति शप् इत्यस्मात् आगतः. अत्र शप् इति प्रत्ययः तिञ्चित् सार्वधातुकम् इत्यनेन सार्वधातुकसंज्ञां प्राप्नोति. शप् प्रत्ययः षित् प्रत्ययः अस्ति इति कारणतः तिञ्चित् सार्वधातुकम् इत्यनेन सार्वधातुकसंज्ञकः. तादृशसार्वधातुकसंज्ञकप्रत्ययः धातोः परम् अस्ति इति कारणतः अत्र सार्वधातुक आर्धधातुकयोः इति सूत्रेण गुणकार्यं भूत्वा ह्रूहर् भवति. किन्तु क्रियायाः फलं कर्तारं प्रति गच्छति चेदेव हरते इति रूपं, नो चेत् हरति इति रूपं सिद्ध्यति. अग्रिमधातुः अस्ति त्रु. तस्मिन् प्रसङ्गे भवती एव करोतु.
त्रु इति धातुः अस्ति, अत्र अनुदात्तः नास्ति, स्वरः अनुदात्तः नास्ति, स्वरितः नास्ति, अतः इत्संज्ञकः अपि नास्ति. अत्र किमपि नित् नास्ति, इत् नास्ति, अतः शेषात् कर्तरि इति परस्मैपदम् इति सूत्रेण तृ परस्मैपदि धातुः भवति. तृयोगे अत्र अपि सार्वधातुक आर्धधातुकयोः सूत्रेण गुणः भवति, ऋकारः अस्ति, इक्वर्णः अस्ति, अतः तर तरति इति रूपं सिद्ध्यति. तरति हरपरः भवति अत्र अपि, अतः एतत् परस्मैपदीत्वं प्राप्नोति, अतः तरति इति रूपं भवति.
उत्तमं भगिनी, तदेव. अत्र पश्यन्तु, धातुः दीर्घरूकारान्तधातुः. अयं दीर्घरूकारः यथावत् तिष्ठति, इति संज्ञकः नास्ति, रूकारः तिष्ठति एव. धातुः उदात्तेत् नास्ति, स्वरतेत् नास्ति, किमपि नास्ति. तदर्थं शेषात् कर्तरि परस्मैपदम् इति सूत्रेण धातुः परस्मैपदी धातुः भवति इत्यतः अत्र अन्ते परस्मैपदसंज्ञकप्रत्ययः आयाति. रूकारः यथावत् तिष्ठति अत्र. अपि च भगिन्या उक्तमेव, धातुः रूकारान्तधातुः. रूकारः इक् प्रत्याहारे अस्ति, इत्युक्ते अयं धातुः ईगन्तधातुः. धातुः ईगन्तः, तस्मात् परं शप् इति विकरणप्रत्ययः सार्वधातुकप्रत्ययः. तिङ्क्षित् सार्वधातुकम् इत्यनेन शप् विकरणप्रत्ययः सार्वधातुकसंज्ञकः. धातोः परं सार्वधातुकसंज्ञकप्रत्ययः अस्ति इति कारणतः, धातुः ईगन्तः अस्ति इति कारणतः सार्वधातुकार्धधातुकयोः इत्यनेन गुणः भूत्वा त्रू तर् भवति. तर् युगः अयुगति, तरति इति रूपम्. अग्रिमधातुः सुजाता भगिनी भवती करोतु.
देङ् धातु अस्ति, ण्यकारः इत्संज्ञा भवति, ण्यकारः इत्संज्ञा भवति, अनुदात्ते नितः इत्यनेन आत्मनेपदी आत्मनेपदी भवति. इत्संज्ञा भूत्वा दे एव अवशिष्यते. दे अधः अनुदात्त चिह्नः अस्ति, आत्मने अनुदात्त नितः आत्मनेपदी.
भगिनी अत्र स्पष्टता भवेत्, दकारोत्तरवर्ती एकारः अनुदात्तः एव, किन्तु तस्य प्राधान्यं भिन्नं खलु?
आं भगिनि, आं भगिनि.
इतिसंज्ञकवर्णानां लोपकार्य अनन्तरं यः स्वरः अवशिष्टः अस्ति सः स्वरः कीदृशः, तत्र चिह्नानि सन्ति वा, तस्य प्राधान्यं भिन्नम्. अवशिष्टस्वरस्य आधारेण इड् व्यवस्थां ज्ञातुं शक्नुमः, किन्तु अत्र केन कारणेन आत्मनेपदत्वम्?
ण्यकारः इत्संज्ञा भवति इत्यनेन आत्मनेपदत्वं भवति.
नित् धातुः अस्ति इति कारणतः धातोः परम् आत्मनेपदसंज्ञकप्रत्ययाः एव विहिताः भवन्ति. इदानीं रूपं साधयतु.
ते योगः शप् योगः ति भवति.
ति किमर्थम्?
ते भवति आत्मनेपदे इत्यनेन ते आयाति भगिनि. दे योगः शप् योगः ते भवति. ते एकारः अस्ति इत्यनेन दे ऐ आदेशः भवति. देयति भवति, देयते भवति.
लौकिकधातुः दे अस्ति, धातुः इगन्तः नास्ति, इत्युक्ते इक् प्रत्याहारस्थवर्णः धातोः अन्ते नास्ति, एकारः इक् प्रत्याहारस्थवर्णः नास्ति, अतः अत्र शपं निमित्तीकृत्य अङ्गकार्यं नास्ति, किन्तु सन्धिकार्यम् अस्ति खलु?
आं भगिनि.
सन्धिकार्यं कथं भवति वदतु.
सन्धिकार्यं ये योगः आयोगः ते भवति, ये च यवायावः इत्यनेन धे भवति, धे योगः आयोगः ते जेयते.
न, इतोपि स्पष्टतया वक्तव्यम्.
दे ऐ आदेश भवति गुणकार्यं भूत्वा.
गुणकार्यं नास्ति. किमर्थं चेत् धातुः एजन्तधातुः इत्युक्ते एच् प्रत्याहारस्थवर्णः अस्ति, न तु इक्
प्रत्याहारस्थवर्णः. ऐ एव आदेशः भवति, देयते भवति.
इतोपि स्पष्टतया वक्तव्यं. गीताञ्जलि भगिनी कृपया वदतु, स्पष्टतया वदतु.
देङ् इति धातु भगिनी उक्तवती एव, दे योगः अयोगः ते, दे योगः अ अत्र तु शप् अस्ति, किन्तु सन्धिकार्यमेव करणीयम्. अत्र ए योगः अ एचोयवायावः सि सूत्रेण ऐ आदेशः भवति ए स्थाने, इत्युक्ते दये, दकार अकार यकार दये योगः शप्तः अतिष्ठति अवशिष्यते. दये योगः अयोगः ते, दयते इति,
दयते इति रूपं सिद्ध्यते. साधु भगिनी, तदेव. धातौ ञकारः इति संज्ञकः, अतः नित् धातुः, अतः आत्मनेपदी. धातुः इगन्तः नास्ति, गुणकार्यस्य प्रसङ्गः नास्ति, शपं निमित्तीकृत्य अङ्गकार्यं नास्ति, केवलं सन्धिकार्यमस्ति. यचोयवायावः इति सूत्रेण यान्तवान्तादेशसन्धिः भूत्वा केवलम् एकारस्य स्थाने एव ऐ आदेशः भवति. तत्र रूपं कथमस्ति तदा, दकारः योगः ऐ योगः आ योगः ते आत्मनेपदप्रत्ययः, वर्णमेलनेन दयते इति रूपं सिद्ध्यति. अग्रिमधातोः प्रसङ्गे भवती एव वदतु, सुजाता भगिनी.
ब्रूहि धातु अस्ति, हलन्त्यम् इत्यनेन ञकारस्य इत्संज्ञा भवति, ञकारः इत्संज्ञा इत्यनेन उभयपदत्वं भवति. ब्रू योगः ब्रू अधः रेखा अस्ति, इत्यनेन आत्मनेपदे भवति.
भगिनी अत्र भ्रमः मास्तु,
इति अवस्था सूचयति भगिनी.
धातुः अनुदात्तेत् नास्ति, अनुबन्धवर्णानां निष्कासनानन्तरम् अवशिष्टस्वरः कीदृशः इति प्रश्ने सति अवशिष्टस्वरस्य आधारेण इड्यव्यवस्थां शक्नुमः. अत्र वदतु,
ब्रू एव अवशिष्यते. ब्रू योगः शप् योगः नकारः इत्संज्ञा भवति इत्यनेन कर्त्राभिप्राये नितः अस्ति भगिनि.
उत्तमम्. धातुः नित् अस्ति, चवर्गीय अन्तिमव्यञ्जनम् इत्संज्ञकः अस्ति.
इत्यनेन उभयपदी भवति.
उत्तमम्. उभयपदी भवति इत्युक्ते चवर्गीय अन्तिमव्यञ्जनम् इत्संज्ञकः, अतः स्वरितनित कर्तृभिप्राये क्रियापदे सूत्रेण धातुः उभयपदी
भवति. ब्रू योगः शप् योगः इत्यनेन शकारपकार इत्संज्ञा भूत्वा तस्य लोपः भवति, आ एव अवशिष्यते. ब्रू गुणः भवति.
गुणः भवति किमर्थं चेत् शप् इति विकरणप्रत्ययः सार्वधातुकसंज्ञकः, अपि च धातुः इगन्तधातुः. ब्रू इति कथनेन अन्ते ऋकारः अस्ति, ऋकारः इक् प्रत्याहारस्थवर्णः, अतः धातुः इगन्तधातुः. धातोः परं शप् इति विकरणप्रत्ययः सार्वधातुकसंज्ञकः.
वदनेन भर् भवति, भर् योगः भवति, उभयपदी इत्यतः ते प्रत्ययः आयाति ब्रू भर्त्य आयाति
स्पष्टतया वदतु अत्र भ्रू इत्यस्य रूपं भर् भवति
भर् भवति
पश्चात् अकारः अस्ति
आं भगिनि भर् अङ्गं भवति भर् योगः ति भवति भारति भर् योगः ते भर्ते भवति
साधु उक्तवती एव भवती जानाति एव केवलं स्पष्टीकरणार्थं वदन्ती अस्मि भ्रू इति ऋकारान्तधातुः गुणः भूत्वा भ्रू भर् भवति किन्तु शप् इत्यस्मात् अकारः अवशिष्यते भर् योगः आ भर इति अङ्गमस्ति तिङ् प्रत्ययस्य कृते भर इति अङ्गं भवति शप् प्रत्ययस्य कृते भ्रू इति धातुः अङ्गं भवति इत्युक्ते प्रत्ययात् पूर्वं यावान् भागः अस्ति तत् सर्वम् अङ्गम् इति वदामः अत्र शप् विकरणप्रत्ययस्य कृते भ्रू इति अङ्गं धातुः उभयपदी धातुः नित् अस्ति इत्युक्ते चवर्गीय अन्तिमव्यञ्जनम् इति संज्ञकः अस्ति इति मम आशयः तदर्थं स्वरितनितकर्तृभिप्राये क्रियाफले सूत्रेण धातुः उभयपदी भवति अतः भरति भरते इति रूपमपि अस्ति अपि च धातुः ऋकारान्तधातुः धातुः अजन्तः अत्र तु इगन्तः इति एव वक्तव्यं धातुः इगन्तः अस्ति इति कारणतः सार्वधातुकार्धधातुकयोः इत्यनेन इक् वर्णस्य गुणः भूत्वा उरण्परः इति सूत्रेण अर् आयाति किन्तु अवशिष्टस्वरः अनुदात्तः इति भिन्ना वार्ता भ्रू इत्यत्र भकारोत्तरवर्तिरुकारः अनुदात्तः तेन अयं धातुः अनिट् इति वार्ता केचन अन्यधातवः अपि सन्ति समापयितुं न शक्नुमः अद्य भवन्तः सर्वे गृहपाठरूपेण अवशिष्टानां धातूनां प्रसङ्गे गृहकार्यं कुर्वन्तु आगामिनि सप्ताहे पुनः मिलित्वा तान् धातून् समाप्य ईड् व्यवस्थायाः प्रसङ्गे अपि ज्ञातुं प्रयत्नं करिष्यामः इदानीम् अत्र स्थगयामः सर्वेषां धन्यवादाः
धन्यवादः भगिनी